श्री परमात्मने नमः। अथ चतुर्दशोऽध्यायः। श्री भगवानुवाच, परम भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्, यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गतः। इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागतः, सर्गेऽपि नोपजायन्ते प्रलयेन गतन्ति च। मम यो निर्महद्ब्रह्म तस्मिन् गर्वं दधाम्यहम्, संभवः सर्वभूतानां ततो भवति भारत। सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति यः, तासां ब्रह्म महद्योनि रहं बीजप्रदः पिता। सत्वं रजस्तम इति गुणः प्रकृतिसंभवः, निबध्नन्ति महाबाहो देहे देहिनमव्ययम्। तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम्, सुखसंगेन बध्नाति ज्ञानसंगेन चानघ। रजो रागात्मकं विद्धि कृष्णासङ्गसमुद्भवम्, तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। समस्तज्ञानुजं विद्धि मोहनम् सर्वदेहिनाम्, प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत। सत्वं सुखे सञ्जयति रजः कर्मणि भारत, ज्ञानमावृत्यदुतमः प्रमादे सञ्जयत्युत। रजस्तमश्चाभिभूय सत्वं भवति भारत, रजः सत्वं तमश्चैव तमः सत्वं रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते, ज्ञानं यदा तदा विद्याद् विवृद्धं सत्वमित्युत। लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्त्रिया, रजस्येतानि जायन्ते विवृद्धे भरतर्षभ। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च, तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन। यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्, तदोत्तमविदान् लोका नमलान् प्रतिपद्यते। रजसि प्रलयं गत्वा कर्मसङ्गेषु जायते, तथा प्रलीनस्तमसि मूढयोनिषु जायते। कर्मणः सुकृतस्याहु सात्विकं निर्मलं फलम्, रजसस्तु फलं दुःख मज्ञानं तमसः फलम्। तत्त्वा सञ्जायते ज्ञानं रजसो लोभ एव च, प्रमादमोहौ तमसो भवतो ज्ञानमेव च। ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसः, जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसः। नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति, गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति। गुणानेतानतीत्यात्रीन् देही देह समुद्भवान्, जन्म मृत्युजरा दुःखैर्विमुक्तो मृतमश्नुते। अर्जुन उवाच, कैर्लिङ्गैस्त्रीन् गुणानेता नतीतो भवति प्रभो, किमाचारः कथं चैतान्स्त्रीन् गुणानति वर्तते। श्रीभगवानुवाच, प्रकाशं च प्रवृत्तिञ्च मोहमेव च पाण्डव, न द्वेषि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति। उदासीनवदासीनो गुणैर्यो न विचाल्यते, गुणावर्तन्त इत्येव योग तिष्ठति नेङ्गते। समदुःख सुखः स्वस्थ समलोष्टाश्म काञ्चनः, तुल्यप्रिया प्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः। मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः, सर्वारम्भपरित्यागी गुणातीतः स उच्यते। मां च यो व्यभिचारेण भक्तियोगेन सेवते, स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाः ममृतस्याजयस्य च, शाश्वतस्य च धर्मस्य, सुखस्यैकान्तिकस्य च, सुखस्यैकान्तिकस्य च। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः।